गुरुरेव गतिः गुरुमेव भजे गुरुनैव सहास्मि नमो गुरवे न गुरोः परमं शिशुरस्मि गुरोर्मतिरस्ति गुरोमपाहि गुरो ओ नमः पाणिनि कात्यायन पतञ्जलिभ्यः सप्तविद्यासम्प्रदाय प्रवर्तकेभ्यः नमो महद्भ्यः नमो गुरुभ्यः पूर्वस्यां कक्षायां सखी शब्दस्य प्रक्रिया विषये ज्ञातवन्तः वयम्। अस्यां कक्षायां पति शब्दस्य विषये ज्ञानं प्राप्नुमः। प्रक्रिया विषये सूत्रं पति शब्दस्य रूपाणि तृतीय हरि शब्दवत् न भवति, तत्र भेदः अस्ति। तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी एकवचने भेदः अस्ति। इदानीम् अस्माभिः तत्र घिसंज्ञाविषये शेषोज्ञसखी इति सूत्रम् अस्माभिः दृष्टम्। तत्र शेषः इत्युक्ते अनदीसंज्ञौ ह्रस्वयौ ईदूतौ इवर्ण उवर्णौ तदन्तं सखीवर्जम् घिसंज्ञं स्यात् इति घिसंज्ञा सूत्रं शेषोज्ञसखी इति अस्माभिः पूर्वमेव दृष्टम्। नदीसंज्ञा कुत्र न भवति? यत् पुल्लिङ्गनपुंसकलिङ्ग्र ह्रस्व इकारान्तः ह्रस्व उकारान्तः यथा हरिवारि स्त्रीलिङ्गे अपि ङित्विभक्तीनां परे यत्र ङितिः ह्रस्वश्च इति नदीसंज्ञा न भवति। इदानीम् अत्र पतिशब्दस्य विषये अग्रिमसूत्रं पतिः समास एव। इदानीं पति शब्दस्य विषये पतिः समास एव इति सूत्रं विद्यते। पतिः समास एव इति पदत्रयं विद्यते। शेषोज्ञसखी इति सूत्रात् घी इति अनुवर्तते। पतिशब्दः अस्य सूत्रस्य अर्थः पतिशब्दः समासे घिसंज्ञः, समासे एव घिसंज्ञः स्यात्, समासे एव इति अस्ति। अमृतवल्ली नमस्ते। नमस्ते जी। नोट्स नागतम्। कस्याः कक्षायाः नोट्स नागतम्? पतिः समास एव इति सूत्रं पदत्रयं विद्यते। पतिः समासे एव शेषोज्ञसखी इति सूत्रात् घी इति अनुवर्तते। ಪತಿಸಮಾಸೈತಿ ಪ್ರಥಮಾಧ್ಯಾಯಸ್ಯ ಚತುರ್ಥ ಪಾದಸ್ಯ ಅಷ್ಟಮ ಸೂತ್ರ. ಇದಾನಿಂ ಪತಿ ಶಬ್ದಃ ಸಮಾಸೇ ಏವ ಗೀಸಂಜ್ಞಃ ಸ್ಯಾತ್ ಇತಿ ಅಸ್ಯ ಸೂತ್ರಸ್ಯ ಅರ್ಥಃ. ಇವಾನ್ ಏವಂ ಕೇವಲ ಪತಿ ಶಬ್ದಸ್ಯ ಗೀಸಂಜ್ಞ ನಾಸ್ತಿ. ಗೀಸಂಜ್ಞ ನಾಸ್ತಿ ಇತ್ಯುಕ್ತೆ ಕಿಂ ತತ್ರ ಕಿಂ ಭವತಿ ಇತ್ಯುಕ್ತೆ ತತ್ ಪ್ರಯುಕ್ತಾನಿ ಕಾರ್ಯಾಣಿ ನ ಭವಂತಿ. ಗೀಸಂಜ್ಞ ಪ್ರಯುಕ್ತಾನಿ ಕಾರ್ಯಾಣಿ ನ ಭವಂತಿ. ಇದಾನಿಂ ಘಿಸಂಜ್ಞಾ ಪ್ರಯುಕ್ತಾನಿ ಕಾರ್ಯಾಣಿ ಕಾನಿ ಇತಿ ಪಶ್ಯಾಮಃ. ಮಹಾದೇವನ್ ಮಹೋದಯ, ಘಿಸಂಜ್ಞಾ ಪ್ರಯುಕ್ತಾನಿ ಕಾರ್ಯಾಣಿ ಕಾನಿ? ನಾದೇಶಃ ಭವತಿ. ಆಂಗೋ ನಾಸ್ತ್ರಿಯಾಂ. ಗೇರ್ನಿತಿ ಇತಿ ಏವಂ ಕಾರ್ಯತ್ರಯಂ. ಕಾರ್ಯತ್ರಯಂ ಪಂಚಸ್ಥಳೇಷು ತತ್ರ ಪರಿಣಾಮಃ. ಆಮೋ ನಾಸ್ತ್ರಿಯಾಮಿತಿ ತೃತೀಯ, ನ್ಯೇಂ ಅಸಿಂ ಅಸ್ ಗೇರ್ನಿತಿ ಅಚ್ಚಗೇಹೇತಿ ಸಪ್ತಮಿ ಏಕವಚನ. ಸಮೀಚೀನ, ಅತಿ ಸಮೀಚೀನ. ಇದಾನಿಂ ಪತಿ ಶಬ್ದಸ್ಯ ತರ್ಹಿ ತೃತೀಯ ವಿಭಕ್ತೌ ಯದಿ ಗಿಸಂಜ್ಞಾ ನಾಸ್ತಿ ಆಂಗೋ ನಾಸ್ತ್ರಿಯಾಮಿತಿ ಸೂತ್ರಸ್ಯ ಪ್ರವೃತ್ತಿ ನಾಸ್ತಿ ತರ್ಹಿ ಸಖಿ ಶಬ್ದವತ್ ಅಸ್ಯಾಪಿ ಪತಿ ತಾ ಆ ಇತಿ ಸ್ಥಿತೇ ಕಿಂ ಭವತಿ ಇಕೋ ಎಣಚಿ ಇತಿ ಎಣಾದೇಶ ಭವತಿ. ಏವಂ ಪತ್ಯಾ ಇತಿ ರೂಪಂ. ಅವಗತಂ ವಾ? ಪತಿ ಶಬ್ದಸ್ಯ ಪತ್ಯಾ ಇತಿ ರೂಪಂ. ಸಮಾಸೆ ಏವ ಪತಿ ಶಬ್ದಸ್ಯ ಗಿಸಂಜ್ಞಃ ಸ್ಯಾತ್. ಇದಾನಿಂ ವಯಂ ಕೇವಲ ಪತಿ ಶಬ್ದಸ್ಯ ವಿಷಯೆ ಕೇವಲ ಪತಿ ಶಬ್ದಸ್ಯ ಪ್ರಕ್ರಿಯಾಂ ಬಹು ಡಿಸ್ಟರ್ಬೆನ್ಸ್ ಅಸ್ತಿ. ಇದಾನಿಂ ವಯಂ ಕೇವಲ ಪತಿ ಶಬ್ದಸ್ಯ ಸಮಾಸರಹಿತ ಪತಿ ಶಬ್ದಸ್ಯ ಪ್ರಕ್ರಿಯಾ ವಿಷಯ ಚರ್ಚಾಂ ಕುರ್ವಂತ ಸ್ಮಃ. ಅತಃ ಪತಿ ತಾ ಇತ್ಯತ್ರ ಯದಿ ಸಮಾಸೇ ಭವತಿ ಗಿಸಂಜ್ಞಾ ಅಸ್ತಿ, ಯದಿ ಸಮಾಸೇ ನಾಸ್ತಿ ಗಿಸಂಜ್ಞಾ ನ ಭವತಿ. ಕೇವಲ ಪತಿ ಶಬ್ದಸ್ಯ ಗಿಸಂಜ್ಞಾ ನಾಸ್ತಿ. ಅವಗತಂ ವಾ? ತದೇವ ಉಕ್ತವಾನ್. ಪತಿ ಟಾ ಇತ್ಯತ್ರ ಆಂಗೋ ನಾಸ್ತ್ರಿಯಾಮಿತಿ ನಾಭಾವೋ ನ ಭವತಿ ತರ್ಹಿ ಕಿಂ ಭವತಿ ಇತಿ ಪ್ರಶ್ನಃ. ಯಥಾ ಸಖಿ ಶಬ್ದ ಪ್ರಕ್ರಿಯಾಯಾಂ ಯಣಾದೇಶಃ ಭವತಿ ತಥೈವ ಅತ್ರಾಪಿ ಯಣಾದೇಶಃ. ಪತ್ಯಾ ಇತಿ ರೂಪಂ. ಪತಿ ಜ್ಞೇ ಇತ್ಯತ್ರಾಪಿ ಘೇರ್ನಿತಿ ಇತಿ ಸೂತ್ರಂ ಆಗಚ್ಚತಿ, ಪರಂತು ಪತಿ ಶಬ್ದ ಪತಿ ಸಮಾಸ ಏವ ಇತಿ ಸೂತ್ರಂ ಆಗತ್ಯ ವದತಿ ಸಮಾಸೇ ಅಸ್ತಿ ವಾ ಪಶ್ಯ ಇತಿ ಪೃಚ್ಛತಿ. ಸಮಾಸೇ ನಾಸ್ತಿ ಚೇತ್ ಗಿಸಂಜ್ಞಾ ನಾಸ್ತಿ, ಅತಃ ಘೇರ್ನೀತಿ ಇತಿ ಗುಣೋ ನ ಭವತಿ. ಇದಾನಿಂ ಏತತ್ ಸೂತ್ರಂ ನಿಯಮಸೂತ್ರಮಸ್ತಿ ಕಥಂ ಇತಿ ಪಶ್ಯಾಮಃ. ಇದಾನಿಂ ಯದಿ ಇದಾನಿಂ ಸಮಾಸೇ ಯದಿ ಪತಿ ಸಮಾಸ ಏವ ಇತಿ ಸೂತ್ರಂ ನಾಸ್ತಿ ಚೇತ್ किम का स्थिति ही अस्ति पति इति शब्द अस्ति इफ पति समास एवा सूत्र इज नॉट देयर देन समास समासे असमासे सर्वत्र पति शब्दस्य शेषोघ्य सखी इति सूत्रेण गिसंज्ञा प्राप्ति ही वेदर समासा और नॉट समासा हाँ किमपि प्रश्नः अस्ति वा हाँ बैकग्राउंड नॉइस भवत्याः गृहे बहु अस्ति इदानीं कथम इदानीं पति समासे एव इति सूत्र सूत्रं नास्ति चेत् तत्र पति शब्दः अस्ति पति शब्दस्य समासे वा असमासे वा सर्वत्र गिसंज्ञा प्राप्तिः तु अस्ति एव इदानीं पति समास एव इति सूत्रम् आगच्छति तत्र नियमं करोति फर्स्ट देयर वर समासे वा असमासे वा गिसंज्ञा प्राप्तिः अस्ति परन्तु मया पति समास एव इति सूत्रं किं करोति यदि गिसंज्ञा भवति चेत् तत् समासे एव इति नियमं करोति समासे एव पतिशब्दस्य गिसंज्ञा असमासे नास्ति इति नियमं करोति अतः नियमसूत्रमेतत् पतिसमास एव इति नियमसूत्रमेतत् हा हा सखी शब्दे असखी हाँ तत्र समासे असमासे सखी शब्दस्य समान प्रकृति ही अस्ति परंतु एकम महादेवन महोदय अत्र सखी शब्दस्य विषये समासे तत्र यदि समासः प्राणसखा सुसखा तत्र परमसखा इत्यादि स्थलेषु क्वचित् भेदः वर्तते तत्र समासं दृष्ट्वा अस्माभिः गिसंज्ञा अस्ति वा न वा इति तत्र गौणप्रधाननिर्णयं स्वीकृत्य तस्य निर्णयः करणीयः तस्य तद्विषयं तु अस्ति एव तद् लघुकौमुद्यां न दत्तं परन्तु तद् सिद्धान्तकौमुद्यां तद्विषये बहु चर्चा कृता परमसखा सुसखा इत्यादि विषये कथं भवति इति चर्चा तत्र कृता यदि लाक्षणिकप्रयोगः नाम उपसर्जनप्रयोगः वेर् परमसखा यस्य परमसखः इति अस्ति परमः सखा यस्य परमसखा परम तत्र बहुव्रीहिः भवति चेत् अन्यपदार्थप्रधानः भवति तदा किञ्चित् भिन्नः भवति तत्पुरुषः अस्ति चेत् तद्भिन्नः शोभनः सखा सुसखा तत्र सखा सखायो सखायः इत्यत्र सुसखा सुसखायो सुसखायः इत्येव भवति इदानीं असखी तत्र शेषोघ्यसखी इत्यत्र असखी इति अस्ति किल असखी इति सखी शब्दस्य निषेधः इदानीं सुसखी इत्यत्र सखी शब्द समुदायस्य सखी शब्द सखी रूपत्वं नास्ति सुसखी रूपत्वम् अस्ति भिन्नः अस्ति तदा तत्र गिसंज्ञा भवति इत्युक्ते सुसखिना सुसखये इति भवति रूपम् अतिशयितः सखा अतिसखा परमः सखा यस्य इति विग्रहे तत्र सखा सखायो इत्येव भवति एवं तत्र लिङ्गमपि द्रष्टव्यं लिङ्गविशिष्टपरिभाषा इति अस्ति एवम् एतत् सर्वं दृष्ट्वा किञ्चित् निर्णयः स्वीकर्तव्यः सः किञ्चित् दीर्घः विषयः अस्ति तदनन्तरं प्रविशामः परन्तु पतिशब्दस्य विषये विशेषरूपेण सूत्रमेव कृतं पतिः समास एव इति सूत्रमेव अस्ति पाणिनिना एव सूत्रं कृतम् अतः इदानीं तत्र गिसंज्ञा नास्ति तर्हि यनादेशः नियमसूत्रमेतत् यद्येतत्तु अस्माभिः ज्ञातम् एवं पत्युः क्यत्यात्परस्य इति सूत्रेण उत्त्वं भवति पत्युः इति भवति अच्छगेः इति अकारादेशः न भवति तत्र ङी सप्तमी भक्तौ यणादेशः भवति पति औ पत्यौ यदि समासे भूपतिः इति अस्ति इदानीं समासे अस्माभिः किमुक्तं समासे गिसंज्ञः भवति समासे गिसंज्ञः नाम हरिशब्दवत् रूपम् भूपतिना भूपतये भूपतेः भूपतेः भूपतौ इति भवति समासे इदानीम् अन्यः एकः प्रमुखः विषयः अस्ति बहुपति इति शब्दः अस्ति बहुपति शब्दः इदानीं पतिः समास एव इत्युक्ते वदामि इदानीं पतिस्समास एव इति सूत्रस्य उदाहरणं भूपति नरपति मृगपति गृहपति पृथ्वीपति क्षितिपति लोकपति देशपति पशुपति गणपति सेनापति सर्वत्र पतिशब्दस्य समासे किं भवति हरिशब्दवत् रूपं भवति इदानीं बहुपति इति शब्दः द्विधा तत्र बहु द्विधा भवति तत् बहुचिति एकः प्रत्ययः अस्माभिः प्रत्ययानां विषये सर्वदा किम् अस्माभिः ज्ञातम् इत्युक्ते प्रकृतिः भवति प्रकृत्या सह प्रत्ययः युज्यते इत्युक्ते प्रकृतेः परं प्रत्ययः युज्यते इत्येव नियमः लोकनियमः व्याकरणनियमः एवं प्रकृतेः परमेव प्रत्ययः युज्यते परन्तु एकः प्रत्ययः अस्ति तस्य अपवादत्वेन बहुच् इति प्रत्ययः अस्ति बहुच् इति प्रत्ययः पूर्वं युज्यते विभाषा सुपो बहुच् पुरस्तात् इति एकं सूत्रम् अस्ति किं तत्र किं क्रियते अनेन सूत्रेण बहुच् इति प्रत्ययः पूर्वं प्रयुज्यते इदानीं बहुपति इत्युक्ते बहुच् प्रत्ययः यदा भवति तदा ईषद् ऊनपतिः बहुपति इत्युक्ते ईषद् ऊनपतिः बहुपति इत्युक्ते समथिङ्ग् लेस् देन् ए हस्बेण्ड् बहुच् प्रत्ययः यदा अस्ति चेत् यदा बहु तदा किं भवति बहुच् प्रत्ययः अस्ति समासः नास्ति तत्र बहुपति इत्यत्र समासः नास्ति तदा किं भवति पतिशब्दवत् भवति यतोहि घिसंज्ञा नास्ति पतिसमासे एव घिसंज्ञः पतिशब्दवत् भवति यदि बहुशब्दः अस्माभिः इष्टः तर्हि बहुपति इत्युक्ते तत्र तत्र भूपतिवत् भवति अवगतं वा महादेवन् महोदय अवगतं वा दि बहुपति शब्द केन् बि फार्म्ड् इन् टु वेस् वन् बै बहुच् प्रत्यय बहुच् इस् वन् प्रत्यय विच् इस् एडेड् बिफोर् द रूट् बै द सूत्र विभाषा सुपो बहुच् पुरस्तात् सो प्रकृतेः पूर्वं बहुच् प्रत्ययः भवति तर्हि किं भवति पतिशब्दवत् भवति यथा समासे समासः नास्ति अत्र यदि बहुशब्दः इष्यते तदा भूपतिवत् भवति एतत् ज्ञातव्यम् अस्माभिः अग्रिमविषयः तत्र प्रसिद्धश्लोकः अस्ति सीतायाः पतये नमः इति सीतायाः पतये नमः इत्यत्र समाधानं किम् इति प्रश्नः पतये नमः इति न भवितव्यं किल तत्र तदा उच्यते षष्टीयुक्तश्चन्दसि वा इति सूत्रमस्ति तत्र कवयः छन्दोवत् प्रयोगं कुर्वन्ति इति नियमं स्वीकृत्य षष्टियुक्तश्चन्दसि वा छन्दोवत्तयं प्रयोगः इति स्वीकृत्य छन्दोवत् नाम वेदवत् इति वेदवतयं प्रयोगः अतः अत्र गिसंज्ञा क्वचित् प्रवृत्तिः क्वचित् न प्रवृत्तिः इति तत्र बाहुलकात् बाहुलकात् नाम समटैम्स् इट् हेपन् समटैम्स् इट् डजन्ट् हेपन् तत्र वेदे नियमः नास्ति अतः अस्माभिः छन्दोवत् प्रयोगः इति अनुसृत्य अस्य समाधानम् उच्यते कवयः एवं कुर्वन्ति छन्दोवत् प्रयोगं कुर्वन्ति अतः छन्दोवत् प्रयोगः एषः इति कृत्वा समाधानं वक्तुं शक्यते अन्यः समाधानः इत्युक्ते तत्पुरुषे कृतिबहुलम् इति तत्र तत्पुरुषसमासे बहुलग्रहणं कृतम् इत्युक्ते षष्ठी समासस्य अलुक् सीता इदानीं सीतायाः पतिः सीतापतिः तत्र सीतापतिः इत्यत्र सीतायाः इति विभक्तेः लुक् भवति लुक् नाम लोपः भवति तदनन्तरं सीता इति प्रातिपदिकं पति पति इति प्रातिपदिकं मिलित्वा समासः भवति ततः समस्तात् पदात् विभक्तिः युज्यते एवम् इदानीं सीतायाः पतये इत्यत्र अलुक् समासः इति स्वीक्रियते चेत् अलुक् नाम विभक्तेः लोपः न कृतः अत्र इति क्रियते चेत् अलुक् अत्र अलुक् समासः अस्ति अलुक् नाम यथा युधिष्ठिरः इति अस्ति युधिष्ठिरः इति समासः तत्र युध् इति युधिष्ठिरः इति भवेत् तद् युधिष्ठिरः युधिष्ठिरः इति अस्ति युधि इति सप्तमी विभक्तेः अलुक् अस्ति अलुक् नाम लुक् न विभक्तिलोपः न अभवत् इति सर्वत्र समासे किं भवति इत्युक्ते विभक्तिलोपः भवति पूर्वपदस्य विभक्तिलोपः भवति उत्तरपदस्य विभक्तिलोपः भवति द्वयोः पदयोः विभक्तिलोपानन्तरं समासः भवति समस्तपदस्य अनन्तरं पुनः विभक्तियोगः भवति एषा एव प्रक्रिया समासे इदानीम् अत्र सीतायाः पतये नमः इत्यत्र सीतायाः तत्र सीतायाः इति अलुक् समासः इति स्वीकृत्य अतः अलुक् न कृतः अतः अत्र गिसंज्ञा भवति इति कृत्वा अस्माभिः सीतायाः पतये नमः इत्यस्य साधुत्वम् उच्यते एवं भूपतिशब्दस्य रूपाणि एवं सन्ति तत्तु अस्माभिः दृष्टम् इदानीम् अग्रिमशब्दः इकारान्तः पुल्लिङ्गः कति शब्दः इदानीं कति इति शब्दः हा प्रश्नः अस्ति वा अमृतवल्ली भगिनी प्रश्नः अस्ति वा ओ ओ तर्हि हेण्ड् रेस् कृतम् अतः इकारान्तः पुल्लिङ्गः कति शब्दः कति शब्दः कति इति शब्दः अव्ययं नास्ति कति हौ मच् इति तत्र अस्ति सर्वे तत्र चिन्तयन्ति अव्ययमस्ति इति अव्ययं नास्ति तत् परन्तु नामपदम् इदानीम् इकारान्तः पुल्लिङ्गः कति शब्दः कति शब्दस्य कति शब्दः नित्यं बहुवचनान्तः नित्यं बहुवचनान्तः इदानीं कति शब्दस्य रूपनिष्पत्तिः कथं भवति इत्युक्ते किं डति किं शब्दस्य डति इति प्रत्ययः किमः सङ्ख्यापरिमाणे डति च इति डतिप्रत्ययः डतिप्रत्ययः भवति किम् अति क् अति कति कति अस् कति इति भवति इदानीं नित्यं बहुवचनान्तः इति उक्तत्वात् सु औ जस् जस् प्रत्यये अस् इति भवति कति अस् इति स्थिते अग्रिमसूत्रं प्रवर्तते बहुगणवतु डतिसङ्ख्या बहुगणवतु डतिसङ्ख्या इत्यत्र बहुगणवतु डति इति एकं पदं सङ्ख्या इति अपरं पदं पदद्वयं वर्तते बहुगणवतु डति बहुगणवतु डति सङ्ख्या सङ्ख्या इति संज्ञा अनेन सूत्रेण विधीयते अतः संज्ञासूत्रमेतत् किम् उच्यते अनेन सूत्रेण बहुगणवतु डति सङ्ख्या भवन्ति एते सङ्ख्यासंज्ञाः भवन्ति तर्हि बहुगणवतु डति इत्यत्र बहुशब्दः गणशब्दः वतुप्रत्ययान्तशब्दः वतुप्रत्ययान्तशब्दः डतिप्रत्ययान्तशब्दः एते चत्वारः संख्यासंज्ञाः भवन्ति इति उच्यते। इदानीं प्रत्ययग्रहणे तदन्तग्रहणं वतु डति इति प्रत्ययौ, अतः अस्माभिः वतु प्रत्ययान्तः डति प्रत्ययान्तः इति स्वीकर्तव्यः। तत्र प्रत्ययग्रहणे तदन्तग्रहणम् इति न्यायेन, संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति निषेधः अत्र न निषेधस्य प्रवृत्तिः अत्र न भवति। तत्र संज्ञाविधौ संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति निषेधस्य प्रवृत्तिः अत्र न भवति। निषेधस्य प्रवृत्तिः न भवति इत्युक्ते निषेधस्य प्रवृत्तिः न भवति, दि प्रोहिबिशन् विल् नाट् टेक् प्लेस्। इत्युक्ते संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणम् अस्ति इति स्वीकृत्य अत्र वतु प्रत्ययान्तशब्दः डति प्रत्ययान्तशब्दः स्वीक्रियते। ज्ञातं वा? सुजाता भगिनी, संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति प्रायिको नियमः। प्रायिको नियमः इत्युक्ते क्वचित् तत्र प्रवृत्तिः भवति, क्वचित् तत्र नियमः नित्यः नास्ति तत्, अतः सर्वदा तस्य प्रवृत्तिः भवति इति न। अत्रापि संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति निषेधः न प्रवर्तते, अतः तदन्तग्रहणम् अस्ति, वतु प्रत्ययान्तशब्दः डति प्रत्ययान्तशब्दः इति स्वीक्रियते। एवं बहुशब्दः, गणशब्दः, वतु प्रत्ययान्तशब्दः, डति प्रत्ययान्तशब्दः, एते चत्वारः संख्या इति संज्ञां स्वीकुर्वन्ति। संख्या इत्युक्ते 1, 2, 3, 4, 5 इति तत्र गणकसंख्या न, एतत् पृथक् संख्या अस्ति। संख्या इति संज्ञा, संख्या इत्युक्ते संख्या इति एकं द्वे त्रीणि संख्या नास्ति, अत्र संख्या इति संज्ञा अस्ति। इदानीं बहुगणवत् डति संख्या इति तत्र डति प्रत्ययान्तशब्दः तति शब्दः। एवं कति शब्दस्य किम् अभवत्? संख्यासंज्ञायुक्तो अभवत् कति शब्दः। इदानीं कति अस् इति डति प्रत्ययान्तशब्दस्य संख्यासंज्ञा आगता। अग्रिमसूत्रस्य प्रवृत्तिः डति च इति। डति च इति सूत्रमपि प्रथमाध्यायस्य सूत्रं, संज्ञासूत्रमस्ति। अनेन किं, का संज्ञा विधीयते? षट् इति संज्ञा विधीयते। षट् इति संज्ञा, तत्र श्नान्ता षट् इति अस्ति। श्नान्ता श्नान्ता षट् इत्यतः षट् इति अनुवर्तते। संख्या इति तु अस्त्येव। दत्यन्ताः दत्यन्ताः संख्याः षट्संज्ञा स्यात्। सो इफ् यु हेव् ए डति डति प्रत्ययान्तशब्द अण्ड् इट् इस् हेविङ्ग् ए संख्या टु इट्, देन् इट् आल्सो गेट्स् अनदर् संज्ञा, षट् संज्ञा। तर्हि इदानीं प्रश्नः अस्ति, तर्हि एकस्य मनुष्यस्य यथा नामद्वयं भवति तथा संज्ञाद्वयं भवितुं, संज्ञाद्वयं भवितुमर्हति वा इति प्रश्नः। अर्हति इति उत्तरम् कदा इत्युक्ते आकडारादेका संज्ञा इति अधिकारः अस्ति प्रथमाध्यायस्य चतुर्थपादस्य प्रथमं सूत्रं प्रायः। आकडारादेका संज्ञा विप्रतिषेधे परं कार्यं यूस्त्राख्यो नदी नेयङ्वङ्स्थानावस्त्री वामी इति ह्रस्वश्च ಶೇಷೋಗ್ಯ ಸಖಿ ಇತಿ ಅಸ್ತಿ. ತತ್ರ ಆಕಡಾರಾದೇಕಾ ಸಂಜ್ಞಾ ಇತಿ ಅಧಿಕಾರೇ ಯದಿ ನಾಸ್ತಿ ಚೇತ್ ತತ್ರ ತದಾ ಸಂಜ್ಞಾದ್ವಯಂ ಭವಿತುಂ ಅರ್ಹತಿ. ಅತಃ ಇದಾನಿಂ ದತಿ ಶಬ್ದಸ್ಯ ದತಿ ಜಸ್ ಇತಿ ಶಬ್ದಸ್ಯ ಸಂಖ್ಯಾ ಸಂಜ್ಞಾ ಆಗತ ಷಟ್ ಸಂಜ್ಞಾ ಅಪಿ ಆಗತ. ಸಂಖ್ಯಾ ಇತಿ ಷಟ್ ಸಂಜ್ಞಾ ಇತಿ ಷಟ್ ಸಂಜ್ಞಾ ಆಗತ. ಇದಾನಿಂ ಸಂಖ್ಯಾ ಪ್ರಧಾನಸ್ಯ ಕಿಂ ಪ್ರಯೋಜನಂ ಇತಿ ಪ್ರಶ್ನ. ಅಗ್ರಿಮ ಸೂತ್ರಂ ಪ್ರವರ್ತತೆ ಷಡ್ಭ್ಯೋ ಲುಕ್ ಇತಿ. ಷಡ್ಭ್ಯೋ ಲುಕ್ ಜಶಸೋ ಲುಕ್ಸ್ ಭವತಿ. ಜಶಸೋ ಸ್ಥಿಹಿ ಇತಿ ಅಸ್ತಿ. ಸಪ್ತಮಾಧ್ಯಾಯಸ್ಯ ಪ್ರಥಮ ಪಾದಸ್ಯ ಸೂತ್ರಮೇತತ್. ಜಶಸೋ ಸ್ಥಿಹಿ ಇತ್ಯತಃ ಜಶಸೋ ಇತಿ ಅನುವರ್ತತೆ. ಷಡ್ಭ್ಯಃ ಷಡ್ಭ್ಯಃ ನಾಮ ಷಡ್ ಸಂಜ್ಞಾಯುಕ್ತ ಶಬ್ದೇಭ್ಯಃ ಇತ್ಯರ್ಥಃ. ಷಡ್ಭ್ಯಃ ಪರಯೋಃ ಷಡ್ಭ್ಯಃ ಪರಯೋಃ ಕಿಂ ಭವತಿ ಜಶಸೋಃ ಲುಕ್ ಭವತಿ. ಲುಕ್ ನಾಮ ಕಿಂ ಲುಕ್ ನಾಮ ಕಿಂ ಇತಿ ಅಗ್ರಿಮ ಸೂತ್ರಂ ವದತಿ. ಇದಾನಿ ಷಡ್ಭ್ಯಃ ಪರಯೋಃ ಕತಿ ಜಸ್ ಅಸ್ತಿತಿ ಅಸ್ತಿ ಡತಿ ಚ ಇತಿ ಷಟ್ ಸಂಜ್ಞಾ ಆಗತ. ಇದಾನಿಂ ಷಟ್ ಸಂಜ್ಞಾ ಕತಿ ಶಬ್ದಸ್ಯ ಅಸ್ತಿ ಅತಃ ಜಸ್ ಅಸ್ತಿತಿ ತತ್ರ ಪ್ರತ್ಯಯಸ್ಯ ಲುಕ್ ಭವತಿ. ಲುಕ್ ನಾಮ ಲೋಪಃ ಇತಿ ಅರ್ಥಃ. ಏವಂ ಕತಿ ಜಸ್ ಇತಿ ಸ್ಥಿತೇ ಷಡ್ಭ್ಯೋ ಲುಕ್ ಇತ್ಯನೇನ ಕತಿ ಸಂಜ್ಞಾ ಕತಿ ಶಬ್ದಸ್ಯ ಷಟ್ ಸಂಜ್ಞಾ ಅಸ್ತಿ ಅತಃ ಜಸ್ ಪ್ರತ್ಯಯಸ್ಯ ಲುಕ್ ಭವತಿ. ಲುಕ್ ನಾಮ ಕಿಂ ಲುಕ್ ಇತ್ಯುಕ್ತೆ ಕಿಂ ಇತಿ ಪ್ರಶ್ನೆ ಪ್ರತ್ಯಯಸ್ಯ ಲುಕ್ಸು ಲುಪಃ ಇತಿ ಉತ್ತರಂ ದೀಯತೆ. ಲುಕ್ಸ್ಲು ಆರ್ ಲುಕ್ಸ್ಲು ಲುಪ್ ಏತೇ ಪ್ರತ್ಯಯಸ್ಯ ಅದರ್ಶನಂ ಲೋಪಃ ಇತಿ ಸೂತ್ರಮಸ್ತಿ. ಅದರ್ಶನಂ ಲೋಪಃ ಅದರ್ಶನಂ ಲೋಪಃ ಇತ್ಯತಃ ಅದರ್ಶನಂ ಇತಿ ಅನುವರ್ತತೆ. ಅದರ್ಶನಂ ಪ್ರತ್ಯಯಸ್ಯ ಲುಕ್ ಶ್ಲು ಲುಪಃ ಇತಿ ಅಸ್ತಿ. ಇದಾನೀಂ ಪ್ರತ್ಯಯಸ್ಯ ಅದರ್ಶನಂ ಯದಾ ಕ್ರಿಯತೆ ಪ್ರತ್ಯಯಸ್ಯ ಯದಿ ಅದರ್ಶನಂ ಕ್ರಿಯತೆ ಕೇನ ಪ್ರತ್ಯಯಸ್ಯ ಅದರ್ಶನಂ ಕ್ರಿಯತೆ ತರ್ಹಿ ತಸ್ಯ ಲುಕ್ ಶ್ಲು ಲುಪ್ ಇತಿ ಸಂಜ್ಞಾಃ ಭವಂತಿ. ಇದಾನೀಂ ಲುಕ್ಸ್ಲು ಲುಪಃ ಇತಿ ಲುಕಿತಿ ಪ್ರತ್ಯಯ ಅದರ್ಶನ ಪ್ರತ್ಯಯ ಅದರ್ಶನಸ್ಯ ಲುಕ್ ಇತಿ ಸಂಜ್ಞಾ ಅಸ್ತಿ. ಪ್ರತ್ಯಯ ಅದರ್ಶನಸ್ಯ ಶ್ಲೂ ಇತಿ ಸಂಜ್ಞಾ ಅಸ್ತಿ. ಪ್ರತ್ಯಯ ಅದರ್ಶನಸ್ಯ ಲುಕ್ ಇತಿ ಸಂಜ್ಞಾ ಅಸ್ತಿ. ಏತೇಷಾಂ ತತ್ರ ಲುಕ್ಕಪಿ ಲುಕ್ ನಾಮಾಪಿ ಲುಕ್ಕಪಿ ಅದರ್ಶನಮೇವ ಲುಪ್ಪಿ ಅದರ್ಶನಮೇವ ಶ್ಲೂ ಇತ್ಯತ್ರಾಪಿ ಅದರ್ಶನಮೇವ. ಪರಂತು ತತ್ರ ಪಾಣಿನಿಹಿ ಕಿಂ ಕರೋತಿ ಶ್ಲೌ ಲುಕಿ ಇತ್ಯಾದಿ ಶಬ್ದಾನಾಂ ಶ್ಲೌ ಲುಕಿ ಇತ್ಯಾದಿ ಶಬ್ದಾನಾಂ ಪ್ರಯೋಗಂ ಕರೋತಿ. ತತ್ರ ಕದಾಚಿತ್ ಲುಕ್ ಇತ್ಯತ್ರ ಲುಪ್ಪಿತಿ ವಾ ಶ್ಲೂ ಇತ್ಯತ್ರ ಲುಪ್ಪಿತಿ ವಾ ಕಿಮಪಿ ಸಾಂಕರ್ಯಃ ಭವಿತುಮ್ ಅರ್ಹತಿ. ಸಾಂಕರ್ಯಃ ನಾಮ ಕನ್ಫ್ಯೂಷನ್. ವೆನ್ ಟು ಯೂಸ್ ಲುಕ್ ವೆನ್ ಟು ಯೂಸ್ ಶ್ಲೂ ವೆನ್ ಟು ಯೂಸ್ ಲುಪ್. ಪಾಣಿನಿ ಹ್ಯಾಸ್ ಯೂಸ್ಡ್ ಇಟ್ ಇನ್ ಹಿಸ್ ಸೂತ್ರಾಸ್ ಇನ್ ವೇರಿಯಸ್ ಸೂತ್ರಾಸ್ ಅಂಡ್ ಹ್ಯಾಸ್ ಗಿವನ್ ಸಮ್ ಕಾರ್ಯ ಬೇಸ್ಡ್ ಆನ್ ಲುಕ್ ಆರ್ ಶ್ಲೂ ಆರ್ ಲುಪ್. those karyas are based on these words. Ataha kadachit sankarya nivrityartham atra asmabhi kim kriyate asmabhi avrtihi kriyate. Idanim vakta kim karoti. Idanim ekaha vakta asti. Vakta ityukte one who is teaching. Vakta kim karoti sankshepena vadati. Parantu shrota kim karoti avrtim kritva patasya avrtim kritva kadachit Asmin sutre api avrti asti. Pratyasya lukshlulupaha iti sutrasya artha karana artham asmabhi kim kriyate. Luk shlu lup iti shabdanam avrti dvivaram kriyate. Pratyasya lukshlulupaha adarshanam iti sthap asmabhi svikriyate. Tarhi ekasya avrti karanantaram asmabhi lukshlulupaha iti eka bhagasya tritiyantataya viparinama kriyate. Idanin lukshlulupaihi kritam pratyasya adarshanam kramat tattat sanyam syat. Tattat sanyam nama
kim?
Pratyayasya adarshanam yada luka kriyate tada lukiti nama. Pratyayasya adarshanam yada shlu shabdena kriyate tada shlu iti nama. Pratyayasya adarshanam yada lupa kriyate tada lupiti nama. Evam sanya trayam asmabhi atra uchyate. Pratyasya lukshlu lupaha nama. Pratyasya lukshlu lup. Etadrsha karyani bhavanti. Lukshlu lup shabdaihi kritam pratyasya adarshanam. Pratyasya adarshanam kramat tattat sanyam syat. Evam anena sutrena lukiti sanya, shlu iti sanya, lupiti sanya kriyate. Pratyasya adarshanam eva yetesham tatparyam. Kimartham tatra namatrayam ityukte. Yetad atiricya lopaha iti ekam namasti. Lopaha, lup, shlu, luk. Yetad chatvari padani santi. Tatra paninihi kim karoti kadachit prithak darshayati kutrachit agre tatra tinganta prakarane etat sarvam agachati. Astu prasangavashat aham prichami saumya bhaginyaha kaksham atra keke panjikaranam kritavantaha kakshartham. Kritavati atak tatra kakshartham upastiti api asidva. Mahadevan Mahodaya, Sadagopan Mahodaya, join that class. Okay. Sharada Bhagini. Okay. Samichinam. Tatra agacchati shlau. Etat pratyasya lukshlu lupaha shlu ஸ்லௌ இதி சூத்திரம் தத்ர ஆகச்சது. அஸ்து இதானீம் லுக் ஸ்லூ லுக் சப்தை இதானீம் தத்ர வியாக்கரண சாஸ்திரே ஏகம் தந்திரம் வித்யதே தத்ர வக்தா கிம் கரோதி ஏகசேஷம் கரோதி போத்துஹு ஆவர்த்திய ஞானம் பவதி. வக்தா தி the person who is telling, he concises it and probably does ekashesha, whereas the shrota, for his jnana sometimes he has to do avrti. Vaktuhu ekasheshaha shabda sankshe ekashe vaktuhu ekasheshena shabda sankshepa bhavati saha vaktuhu vakta yame vadati parantu shrota kim karoti छात्रः किं करोति आवृत्तिं कदाचित् कृत्वा एव तस्य सन्देहनिवृत्तिः वा संशयनिवृत्तिः वा भ्रमनिवृत्तिः वा भवति. एवम् एतदेकं तन्त्रं व्याकरणशास्त्रे. पाणिनि मेनी टैम्स् ही विल् टेल् ओन्ली वन्स्. वी हेव् टु डू रिपिटिशन् अण्ड् टेक् इट् ट्वैस् अण्ड् चेञ्ज् द विभक्ति अण्ड् देन् सूत्रार्थः अस्माभिः करणीयः. एवम् अत्रापि साङ्कर्यनिवृत्त्यर्थम् अत्र आवृत्तिः क्रियते. तृतीयान्ततया विपरिणम्यते तत्र लुक्ष्लूलुक् शब्दैः कृतम् प्रत्ययस्य अदर्शनम् क्रमात् तत्तत्संज्ञम् स्यात् इति. लुक् षड्भ्यो लुक् इति किम् अभवत्? कति जस् इति कति शब्दस्य षट्संज्ञा षट्संज्ञानन्तरम् तत्र जसः लुक् अभवत्. लुक् इत्युक्ते किम् इति प्रश्ने कृते प्रत्ययस्य लुक्ष्लुलुपः इति अस्माभिः उच्यते. इदानीम् अस्माकं प्रश्नः प्रत्ययलोपे प्रत्ययलक्षणम् इति अग्रिमसूत्रम्. प्रत्यये लुप्ते अपि तदाश्रितं कार्यं भवति. इदानीं रामशब्द तत्र अस्माभिः सुपि च इति सूत्रम् अस्माभिः दृष्टम्. ययादौ सुपि परे अतो अङ्गस्य दीर्घः स्यात्. ययादि सुप्रत्ययः तत्र अस्ति इति मत्वा अस्माभिः किं कृतम्? अङ्गस्य दीर्घः कृतः सुपि च इति सूत्रे. एवं कति जस् इति स्थिते इदानीम् अस्माभिः जसि च इत्यत्र गुणः भवति वा इत्युक्ते जस् सूत्र जस्तु षड्भ्यो लुक् इत्यनेन अस्माभिः लोपकृतः जस् प्रत्ययस्य. तर्हि कथम् इत्युक्ते प्रत्ययलोपे प्रत्ययलक्षणम् इति सूत्रं विद्यते. प्रत्ययः लुप्ते अपि तदाश्रितं कार्यं भवति इति सूत्रमस्ति. अतः जसि च इति पुनः यद्यपि लोपः अस्माभिः कृतः तथापि कति इति शब्दस्य पुनः गुणः कते इति गुणः गुणः आगच्छति. तदा कति इत्यत्र प्रत्ययलोपे प्रत्ययलक्षणम् इति आगच्छति. तदा अवान्तरप्रश्नः आगच्छति. भवद्भ्यः भवन्तः किं कृतवन्तः? कति इत्यत्र लुक् कृतवन्तः, न लोपः. लोपः न कृतवन्तः. षड्भ्यो लुक् इत्यनेन लोपः कृतवन्तः कति शब्दस्य. षड्भ्यो लुक् इति लुक् शब्देन लोपः कृतः. इदानीम् अस्मिन् सूत्रे प्रत्ययलोपे प्रत्ययलक्षणम् इति लोपशब्दः अस्ति. प्रत्ययलक्षणपरिभाषा कथमागच्छति? अतः गुणः न भवति इति एकः अन्यः एकदेशी पुरुषः वदति. तदा अस्माभिः उच्यते लुक् श्लू लुप् लोप एते संज्ञाः भवन्ति लोके एते संज्ञाः सन्ति एते अत्र तात्पर्यं तु प्रत्ययस्य अदर्शनमेव तात्पर्यम् यदि प्रत्ययस्य अदर्शनं तात्पर्यम् अत्र विद्यते अतः तद् लोपः वा भवतु लुक् वा भवतु प्रत्ययलोपे प्रत्ययलक्षणम् इति शास्त्रस्य इति सूत्रस्य विषयः भवति अतः प्रत्ययलक्षणगुणः आगच्छति एवं जसि च इति गुणे प्राप्ते महादेवन् महोदय Did you follow this? अतएव पृष्टम् किमपि न किमपि ब्रांड where which one एकनिमिषम् तदनन्तरं षड्भ्यो लुक् इति उक्तम् अस्माभिः षड्भ्यो बिकास् कति शब्द गाट् षट्संज्ञा अण्ड् संख्यासंज्ञा षट्संज्ञा अण्ड् संख्यासंज्ञा एनी षट् एनी शब्द विच् हस् गाट् दि षट्संज्ञा तस्य लुक् भवति लुक् कुत्र भवति जस्यशोः भवति जस् शस् प्रथमावृत्ति बहुवचनं द्वितीयावृत्ति बहुवचनं मध्ये लुक् भवति देर्फोर् तत् लुक् 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 अपि काचन संज्ञा एव लुक् नाम प्रत्ययस्य अदर्शनम् लुक् नाम प्रत्ययस्य अदर्शनमेव लुक् प्रत्ययस्य अदर्शनं केन कदा सी प्रत्ययस्य अदर्शनं टेक्स प्लेस इन द फॉर्म ऑफ लुक् टेक्स प्लेस इन द फॉर्म ऑफ श्लू टेक्स प्लेस इन द फॉर्म ऑफ लुप् तदपि अस्ति सर्वे लोपः Everything is lopa. That is because Panini has got some karya for each of these sanyas. Sometimes in the sutra he will use look. Like for example, Uto Vridhir Luki Hali. There is one sutra. Same way, For Shlu there is one sutra, Shlau. There is one sutra called Shlau. The Shlau. So when you do the look with Shlau, with Shlu, when you do the look lopa with look, then different work karyas happen. All these karyas come in the Tiganta Prakaranam. That is why I asked you how many of you registered for the Tiganta Prakaranam class. So that was the context. Idanim Pratyaya Lope Pratyaya Lakshanam. So there are four words for Luk Shlu Lup. Okay, Pratyaya Luk Shlu Lupaha. But in the previous sutra only three words are given. Pratyaya Luk Shlu Lupaha. Okay. Now, next sutra tells, Pratyaya Lope Pratyaya Lakshanam. Though a Pratyaya is Adarshanam Lopaha, Pratyaya is gone, still some traits are left of that Pratyaya. And that is why Pratyaya Ashrita Karya happens. By this Niyama, Pratyaya Lope Pratyaya Lakshanam. By this Niyama, Pratyaya Lupte Api Tadashritam Karyam Bhavati. इदानीं कति जस्त इति स्थिते तत्र गुणः भवति प्रत्ययलोपे प्रत्ययलक्षणम् इति गुणः भवति jasicha iti gunaha kati ityatra kate iti bhavet. Ha. Idanim ekaha anyaha ekaha prativadi asti. One another person who is a liar, he comes and says, "Boss, you cannot pratyalope pratyalakshanam kada agachati." Where there is lopa, here what you have done, you have used the shadbhyo look and you have taken out the jas. The what you have done is you have used the look shabda, shadbhyo look, and not lopa. Somebody asked, so you are not supposed to use pratyalope pratyalakshanam here and say guna is coming. So guna will never come because you have used look and not lopa. Then the answer is look, shlu, lup and lopa are all the same sanyas for pratyasya adarshanam. Therefore, pratyalope pratyalakshanam can be applied here also. Therefore, kati jas iti stite, jasicha iti gune prapte, gunasya prapti hi bhavati, iti uttaram. Avagatam va? Ha. Sujata Bhagini? Ha. Idanim agrima sutram pravartate, nisheda sutram. Nisheda sutram kim na lumatangasya. Na lumatangasya iti nisheda sutram pravartate. Nisheda sutram kim vadati, lumata shabdena lupte. Lumata shabdena lupte, tannimittam angakaryam nasyat. Tatra lumata ityukte kim, lumata nama, lu asya asti iti luman, lu asti asya saha luman, tadasya asti tadasya asmin iti matu pratyah, shakti asya asti iti shaktiman, dhanam asya asti iti dhanavan, tatra asti kila. Evam atra lu asya asti iti luman. Idanim look, slu, loop. What is common in all the three set of lu? Evam lu yete lumantaha. Luman, lumantau, lumantaha, lumantaha shabdaha yete. Look, slu, loop. Yete lumantaha shabdaha. Ha, idanim na lumatangasya iti sutram kim vadati. Na lumatangasya iti sutram kim vadati. Luk shlu lup yete lumantaha, lumata shabdena lupte, tannimittam angakaryam nasyat. Iti. Angakaryam nama kati jastityatra gunaha bhavitum bhavet na bhavati. Kimartam na bhavati na lumata angasya iti nisheda asti. Nalumatangasya iti nishedaha, nalumatangasya iti yatra, lumata iti yukte, lu asya asti iti luman, tena lumata, lumata, lukshlu lupu, yete lumantaha, evam, pratyalope pratyalakshanam iti yadyapi praptihi asti tathapi nalumatangasya iti apavada sutram agatya tatra nisheda sutram agatya kati jasti tyatra gunasya nishedam karoti atra angakaryam yat guna iti angakaryam kin nimittam tat tannimittam angakaryam, tannimittam angakaryam, lumata shabdena lupte nama shabhyo luk iti luk shabdena lupte, tannimittam angakaryam, जशस जसीचा इति अंगकार्यम जसीचा इति अंगकार्यम तन्निमित्तम अंगकार्यम किम भवति न भवति एवं निषेध सूत्रस्य प्रवृत्त्यनन्तरं कति जस्तित्यत्र गुणः न भवति एवं कति कति इत्येव भवति जस्तपि शस्तपि एतावत् पर्यन्तम् अवगतं वा सन्देहाः सन्ति चेत् कृपया पृच्छन्तु अस्मिन् सन्दर्भे एव पृच्छन्तु अमृतवल्ली भगिनी कति एव कति शब्दस्य कति शब्दः नित्यं बहुवचनान्तशब्दः प्रथमाविभक्ति बहुवचने कति इति रूपं द्वितीयाविभक्ति बहुवचने अपि एवमेव शस् शस् तत्र जस् तत्र षड्भ्यो लुक् इत्यत्र जश्शशोः लुक् भवति इति उक्तम् अतः शस् इत्यत्रापि लुक् भवति एवं कति इत्येव भवति तृतीयाविभक्ति बहुवचनं कतिभिस् कतिभिस् कतिभिः कतिभ्यस् कतिभ्यः एवं कतिभ्यः कति आम् इति भवति ह्रस्वनद्यापो नुट् इत्यनेन नाम् इति नुडागमः अनन्तरं नामीति दीर्घः कतीनाम् इति भवति सप्तमी विभक्ति बहुवचने कतिषु इति आदेशप्रत्ययोः इति एवं रूपाणि भवन्ति कतिशब्दस्य तत्र विशेषः किमपि नास्ति प्रथमा द्वितीया विभक्तिमध्ये एव तत्र विशेषम् अस्ति इदानीम् अग्रिमसूत्रम् युष्मदस्मत् षट्संज्ञकाः त्रिषु स्वरूपाः किमर्थमुच्यते षट्संज्ञकाः अत्र मूले किम् उच्यते लघुसिद्धान्तकौमुद्यां युष्मद् अस्मद् षट्संज्ञकाः त्रिषु स्वरूपाः त्रिषु नाम त्रिषु लिङ्गेषु त्रिषु लिङ्गेषु समानरूपः अस्मत्शब्दः युष्मत्शब्दः तत्तु सर्वे जानन्ति षट्संज्ञकाः शब्दाः अपि त्रिषु समानरूपाः इदानीं कस्य षट्संज्ञा अस्ति कति इति शब्दस्य षट्संज्ञा अस्ति इदानीम् अस्माभिः प्रश्नः पृच्छ्यते कति पुरुषाः कति नार्यः कति फलानि इत्येव पृच्छ्यते कतीनि फलानि कथाः नार्यः कथयः पुरुषाः इत्यादि अस्माभिः न उच्यते यतोहि अस्मद्युष्मद् षट्संज्ञकाः शब्दाः त्रिषु स्वरूपाः तत्र यथा अस्मत्शब्दः युष्मत्शब्दः अस्ति तथैव षट्संज्ञकशब्दाः अपि इदानीं षट्संज्ञकः कस्य शब्दस्य अस्ति कति शब्दस्य अस्ति एवं षट्संज्ञककतिशब्दस्य स्वरूपत्वम् अस्ति कति पुरुषाः कति नार्यः कति फलानि अनन्तरं त्रिशब्दः नित्यं बहुवचनान्तः त्रिशब्दः सङ्ख्याशब्दः इदानीम् इकारान्तः पुल्लिङ्गः त्रिशब्दः नित्यं बहुवचनान्तः त्रिजस् इति स्थिते जसि च इति गुणे कृते त्रे अस्विति भवति अनन्तरं त्रे अस्ति कृते तत्र त्रेयस् इति यचोयवायावः इति त्रेयस् भवति सारि त्रयस् भवति अनन्तरं त्रयर् त्रयः प्रथमावृत्ति बहुवचनं एवमेव त्रयः त्रयः इत्यनन्तरं षष्टिति अस्ति तत्र तस्मात् शशोन पुंसि इति त्रीस् इति भवति प्रथमयोः पूर्वसवर्णः इति पूर्वसवर्णदीर्घः तस्मात् शशोन पुंसि इति त्रीन् इति भवति सो त्रयः त्रीन् त्रिभिः त्रिभ्यः तत्तु ज्ञायते त्रि आम इति अस्ति आम इति षष्ठी विभक्ति बहुवचन प्रत्ययः किं भवति त्रि आम इति स्थिते तत्र तत्र त्रयस्त्रयः इति त्रिश त्रयस्त्रयः इति सूत्रं नास्ति वा त्रयस्त्रयः इति सूत्रमस्ति त्रयस्त्रयः इति सूत्रं किं करोति त्रिशब्दस्य त्रयादेशः इदानीं त्रयस्त्रयः इत्यत्र त्रिशब्दः हरिशब्दवत् अस्ति सूत्रे अवगतं वा सूत्रे त्रयस्त्रयः इति अस्ति सूत्रे पदद्वयमस्ति त्रेः त्रयः इति तत् सूत्रे यत् त्रे त्रि इति अस्ति शब्दः तस्य हरि संख्यावाचकः नास्ति तत् संख्यावाचक तत्र अवगतं वा ऐ एम् ट्रैङ्ग् टु टेल् एन् इम्पार्टेण्ट् पायिण्ट् सम्यक् अवगतं वा इति अहं न जानामि त्रयस्त्रयः इति अस्ति त्रयस्त्रयः इत्यत्र पदच्छेदः यदा क्रियते त्रेः त्रयः इति भवति इदानीं त्रेः इति तस्य षष्टिविभक्ति एकवचनरूपम् अस्ति त्रिशब्दस्य त्रिशब्दस्य तत्र त्रिशब्दः संख्यावाचक त्रिशब् संख्यावाचकं नास्ति हरिशब्दवत् अस्ति तस्य एवं हरेः इव त्रेः त्रयस्त्रयः इदानीम् आमी सर्वनाम्नस्सुट् इत्यतः आमी इति अनुवर्तते त्रिशब्दस्य त्रयादेशः स्यात् आमी इति सूत्रार्थः आम् इति अस्ति त्रयादेशः अस्ति त्रि इति त्रयादेशः इदानीम् अनेकाल्षित् सर्वस्य इति सर्वादेशः भवति अनेकाल्त्वात् सर्वादेशः एवं त्रि इति सर्वा त्रय आम् इति भवति ओ एकनिमिषम् क्षम्यताम् एवं त्रि इत्यस्य त्रयादेशः यदा भवति त्रय आम् इति भवति तर्हि ह्रस्वरद्यापोनुट् इति नुडागमः त्रय नामि इति दीर्घः त्रयानाम् इति भवति तदनन्तरम् अट्कुप्वाङ् नुम् व्यवायेति इति नत्वम् एवं त्रयाणामिति भवति गौणत्वेऽपि प्रियत्रयाणां त्रयाणां त्रिषु आदेशप्रत्ययोः तत्र गौणत्वं नाम किम् इदानीं श्रूयते वा श्रूयते वा श्रूयते वा हरि ओम श्रूयते वा हरि ओम श्रूयते वा श्रूयते वा श्रूयते वा इदानीं श्रूयते मध्ये गतम् इति तर्हि पुनः वक्तव्यं तत्र त्रयादेशः यदा भवति त्रयत्रयः इति त्रयादेशः भवति अनन्तरं नुडागमः भवति नामी इति दीर्घः त्रयाणाम् इति रूपसिद्धिः तत्तु ज्ञातमस्माभिः इदानीं प्रश्नः भवति यदि गौणत्वम् अस्ति तदा केचन वदन्ति त्रिशब्दः गौणत्वं कुत्र इति त्रिशब्दः यदा गौणत्वरूपेण अस्ति तदा त्रयादेशः न भवति इति केचन वदन्ति अत्र लघुकौमुदीकारस्तु किं वदति न गौणत्वे अपि भवति इति गौणत्वं नाम किं गौणत्वं नाम न प्रधानम् इति अर्थः न प्रधानः कुत्व्र न भवति बहुव्रीहि समासे अन्यपदार्थस्य प्रधानं भवति इदानीं प्रिय प्रियत्रिः प्रियाः त्रयः यस्य सः प्रियाः त्रयः यस्य सः प्रियत्रिः इति अस्ति यस्य त्रयः जनाः प्रियाः भवन्ति सः प्रियत्रिः भवति इदानीं महादेवन् महोदयः अस्ति सदगोपन् महोदयः कृष्णशास्त्री महोदयः विश्वास महोदयः सदगोपन् विश्वास महोदयः कृष्णशास्त्री महोदयः महादेवन् महोदयस्य प्रियाः अतः महादेवन् महोदयः किम् अभवत् प्रियत्रिः अभवत् प्रियाः त्रयः यस्य सः प्रियाः त्रयः यस्य सः प्रियत्रिः इदानीम् अत्र त्रिशब्दस्य गौणत्वमस्ति यतोहि अत्र अन्यपदार्थः प्रधानमस्ति एतादृशसन्दर्भे त्रेः त्रयादेशः भवति वा इति प्रश्नः तदा उच्यते गौणत्वेऽपि भवति प्रियत्रयाणां तत्रापि आदेशः भवति इति उत्तरम् अवगतं वा गौणत्वं नाम ತ್ರಿಶಬ್ದಸ್ಯ ಪ್ರಧಾನ ಸಂಖ್ಯಾಕ ಅರ್ಥ ಪ್ರಿಯತ್ರಿ ಇತಿ ಸಮಾಸೇ ನಾಸ್ತಿ. ಪ್ರಿಯಾಹ ತ್ರಯಃ ಯಸ್ಯ ಸಹ ಪ್ರಿಯತ್ರಿಹಿ. ತತ್ರ ತ್ರಿಶಬ್ದಃ ಗೌಣತ್ವ ರೂಪೇಣ ಅಸ್ತಿ. ಪ್ರಿಯ ಶಬ್ದಃ ಅಪಿ ಗೌಣತ್ವಮಸ್ತಿ. ತ್ರಿಶಬ್ದಃ ತ್ರಯಃ ಇತಿ ಶಬ್ದಃ ಅಪಿ ಗೌಣತ್ವ ರೂಪೇಣ ತತ್ರ ಸ್ಥಿತಂ ಅಸ್ತಿ. ಯತೋ ಹಿ ಅನ್ಯ ಪದಾರ್ಥಃ ಪ್ರಿಯತ್ರಿಹಿ ನಾಮ ಯಸ್ಯ ತ್ರಯಃ ಜನಾಃ ಪ್ರಿಯಾಃ ಭವಂತಿ ಸಹ ತತ್ರ ಪ್ರಧಾನಃ ಭವತಿ. ಏವಂ ಏತಾದೃಶ ಸ್ಥಿತೌ ಅಪಿ ಪ್ರಶ್ನಃ ಅಸ್ತಿ ತ್ರಯಸ್ತ್ರಯಾದೇಶಃ ಭವತಿ ವಾ ತದಾ ಉಚ್ಯತೆ ವಸ್ತುತಸ್ತು ಭವತಿ ಇತಿ ಉಚ್ಯತೆ. ಅಸ್ತು ಅತ್ರೈವ ಗೌಣತ್ವೇ ತು ನೇತಿ ಕೇಚಿತ್ ಪ್ರಿಯತ್ರೀಣಾಂ ನೇತಿ ಕೇಚಿತ್. ದಿಸ್ ಈಸ್ ಸಮ್ ಪೀಪಲ್ ಆರ್ ಟೆಲಿಂಗ್ ದಟ್ ಇನ್ ವೆನ್ ಇಟ್ ಇಸ್ ಗೌಣ ಇಟ್ ಶುಡ್ ಬಿ ಪ್ರಿಯತ್ರೀಣಾಂ. ಪರಂತು ಕೇಚಿತ್ ಪರಂತು ಲಘು ಕೌಮುದಿಕಾರ ತು ಗೌಣತ್ವೇಪಿ ಪ್ರಿಯತ್ರಯಾಣಾಂ ಇತಿ ಸಹ ಉತ್ತಮ. ಅಸ್ತು ಅತ್ರೈವ ತ್ರಿಶಬ್ದಸ್ಯ ರೂಪಾಣಿ ಅಭವನ್ ಏವಮೇವ ತ್ರಯಃ ತ್ರೀನ್ ತ್ರಿಭಿಃ ತ್ರಿಭ್ಯಃ ತ್ರಿಭ್ಯಃ ತ್ರಯಾಣಾಂ ತ್ರಿಷು ಆದೇಶ ಪ್ರತ್ಯಯೋಃ ತ್ರಿಷು ಇತಿ ಷತ್ವಂ ಸುಪ್ ತ್ರಿಷು. ಅಗ್ರಿಮ ಶಬ್ದಃ ದ್ವಿಶಬ್ದಃ ಇಕಾರಾಂತ ಪುಲ್ಲಿಂಗಃ ದ್ವಿಶಬ್ದಃ ತದ ಅಗ್ರಿಮ ಕಕ್ಷಾಯಾಂ ಪಶ್ಯಾಮಿ. ಯೇನಾಕ್ಷರ ಸಮಾಂ ನಾಯಮಧಿಗಮ್ಯ ಮಹೇಶ್ವರಾತ್ ಕೃಷ್ಣಂ ವ್ಯಾಕರಣಂ ಪ್ರೋಕ್ತಂ ತಸ್ಮೈ ಪಾಣಿನಯೇ ನಮಃ. ನತ್ವಾ ಸರಸ್ವತೀಂ ದೇವೀಂ ಶುದ್ಧಾಂ ಗುಣ್ಯಾಂ ಕರೋಮ್ಯಹಂ ಪಾಣಿನೀಯ ಪ್ರವೇಶಾಯ ಲಘು ಸಿದ್ಧಾಂತ ಕೌಮುದೀಂ. ಕೃಪಯಾ ಅದ್ಯತನಸ್ಯ ಪಾಠಂ ಅದ್ಯೈವ ಏಕವಾರಂ ಪಠಂತು. ಯತೋ ಹಿ ಪ್ರತ್ಯಸ್ಯ ಲುಕ್ಶ್ಲೋಪಃ ಷಡ್ಭ್ಯೋ ಲುಕ್ ಡತಿ ಚ ಸರ್ವಂ ತತ್ರ ನೂತನ ಸೂತ್ರಂ ನೂತನ ನಾಮನ್ ಪ್ಲೇಚರ್ ಕಾನ್ ಸರ್ವಮಸ್ತಿ ಅದ್ಯೈವ ಪಠಂತು ಇತಿ ಪ್ರಾರ್ಥಯ. ಅಸ್ತು ಅದ್ಯ ಇತ್ಯುಕ್ತೇ ಶ್ವಃ. ಅಸ್ತು ರಾಮ್ 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 ರಾಮ್.